इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। पहलगामातंककीयाक्रमणस्य अनन्तरं भारतेन नैके कठोराः पदक्षेपाः समुत्थापिताः, येषु सिन्धुजलसन्धेः 60-19-शततमवर्षस्य निलम्बनम्, एकीकृतोपरक्षणक्षेत्रस्य अट्टारी इत्येतस्य पिधानं च सम्मिलितौ स्तः। सुरक्षाविषयकमन्त्रिमण्डलसमित्या सीएसएस इत्यनया ह्यः सायंकाले प्रधानमन्त्रिणः नरेन्द्रमोदिनः निजावासे स्वकीयोपवेशने समग्रसुरक्षा स्थितिः समीक्षिता, अथ च सर्वाणि बलानि उच्चसतर्कतां स्थापयितुम् आदिष्टानि। ह्यः रात्रौ नवदिल्ल्यां वार्ताहरान् संसूचयन् विदेशसचिवः विक्रम मिश्री इत्येषः प्रत्यपादयत् यत् पाकिस्तान नागरिकेभ्यः सार्क पारगमनानुमतिपत्रमुक्तयोजनायाः अन्तर्गतं भारतस्य यात्रार्थम् अनुमतिः नैव दास्यते। असौ अग्रे अवोचत् यत् पाकिस्तान नागरिकेभ्यः यत् भूतकाले किमपि SVES इतिदं पारगमनानुमतिपत्रं निर्गतमासीत् तत् निरस्तमिति मन्यते। असौ पुनः उक्तवान् यत् अस्य पत्रस्य अन्तर्गतं भारते निवसन्तः पाकिस्तानदेशीयाः नागरिकाः 48 होराभ्यान्तरैव भारतं त्यजेयुः इति। अत्रावधौ विदेशसचिवः सूचितवान् यत् नवदिल्लीस्थितस्य पाकिस्तानोच्चायोगे रक्षासैन्यबलं, नौसेना, वायुपरामर्शकाः पर्सोना नॉन ग्रेटा इति उद्घोषितः। भारतमपि स्वरक्षापरामर्शकान् इस्लामाबादस्थिते भारतीयोच्चायोगात् प्रत्यावर्तयिष्यति। श्रीमिश्रिः प्रोदीरितवान् यत् सम्बद्धेषु उच्चायोगेषु एतानि पदानि रिक्तानि एव आमान्यन्ते। प्रशासनेन पहलगामे जातस्य आतंक्याक्रमणस्य अनन्तरं अद्य नवदिल्ल्यां सर्वदलीयोपवेशनं समाहूतम्। सूत्रानुसारि इदं उपवेशनम् अद्य सायंकाले 6 संसद्भवन परिसरे समनुष्ठास्यते। संयुक्त राष्ट्र महासचिवः अन्तोनियो गुटरेस इत्ययं जम्मू कश्मीर राज्ये दुरापादितं आतंक्याक्रमणं निन्दितवान्। असौ सबलतया प्रख्यापितवान् यत् नागरिकाणां विरुध्य आक्रमणं कस्यामपि परिस्थित्याम् अस्वीकरणीयमिति वर्तते। महासचिवस्य प्रवक्ता स्टीफन दुजारिक इत्येषः अकथयत् यत् श्री गुटेरेस इत्येषः शोकसन्तप्तेभ्यः मृतकानां परिवारजनेभ्यः शोक संवेदना प्रकटितवान्। राष्ट्रिय पंचायती राज दिवसावसरे प्रधानमन्त्री नरेन्द्रमोदी अद्य बिहार राज्यस्य मधुबनी क्षेत्रात् समग्र देशस्य पंचायती राज संस्थाः, ग्रामसभाः च सम्बोधयिष्यति। अत्रावधौ प्रधानमन्त्री 80+43,000 कोटि रूप्यकाणां विभिन्नाः विकासात्मक परियोजनाः राष्ट्राय समर्पयिष्यति, अथ च शिलान्यासम् उद्घाटनं च विधास्यति एतासां परियोजनानाम्। एतासु परियोजनासु रेल विद्युत सम्पर्क सौविध्यं च सम्मिलिते स्तः। अस्माकं वार्ताहरः सूचितवान् यत् यात्रा प्रवासावधौ प्रधानमन्त्री जयनगर पटना नगरयोः मध्ये प्रचाल्यमानाय नमो भारत रैपिड रेलयानाय हरितध्वजमपि प्रदर्शयिष्यति। आकाशवाण्या सह संजाते संवादक्रमे रेलमन्त्रालयस्य कार्यकारी निदेशकः उक्तवान् यत् पूर्णरूपेण वातानुकूलितम् एतद्धि नमो भारत रेलयानं यात्रिसम्बद्धाभिः सुविधाभिः सुसज्जितं वर्तते।
नमो भारत रैपिड रेल है वो पूरी तरह से एसी सेवा है और सारे चीटे जो है इस ट्रेन में सारे डब्बे जो हैं वह अनरिजर्व क्लास के हैं। इसके जो डोर है वो ऑटोमेटिक क्लोज होते हैं। चीटों की क्वालिटी काफी अच्छी रखी गई है। तो वंदे भारत जैसे सारी फैसिलिटीज है, इसके सेफ्टी फीचर्स काफी इनहेंस किए गए हैं। पैसेंजर एमिनिटीज के हिसाब से यह एक बहुत ही महत्वपूर्ण सेवा है।
आईपीएल इत्येतस्यां 20-20 क्रिकेट मालिकायां ह्यः रात्रौ क्रीडिते द्वन्द्वे हैदराबाद नगरे मुंबई इंडियंस दलेन सनराइजर्स हैदराबाद दलं 7-0 पराजितम् इति वार्ताः।